इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी आश्वस्तिम् अददात् यत् एनडीए इत्यस्य सर्वकारः कौशलविकासेन सह नवाचाराय च प्रबलं ध्यानं दत्त्वा भविष्यस्य नेतृत्वाय युवशक्तिं सज्जीकरोतीति। नवदेहल्याः विज्ञानभवने कौशलदीक्षान्तसमारोहावसरे सः 260,000 कोटिरूप्यकाणां विविध युवकेन्द्रीकृतोपक्रमाणाम् अनावरणम् अकरोत्, येन सम्पूर्णे देशे शिक्षायाः, कौशलस्य, उद्यमशीलतायाः च निर्णायकप्रेरणा प्राप्स्यति। अस्मिन् अवसरे सः अद्यतनीकृत आईटीआई इत्यस्य पीएम सेतु इत्यस्य माध्यमेन प्रधानमन्त्री कौशलवृत्तिनिर्माणेति योजनायाः उद्घाटनमपि अकरोत्।
इंडस्ट्री और आईटीआई के बीच तालमेल को बढ़ाया जा रहा है। आज हमने इस दिशा में एक और बड़ा कदम उठाया है। पीएम सेतु योजना की शुरुआत की गई है। देश भर में हमारे 1000 से ज्यादा आईटीआई इंस्टीट्यूशंस को इसका फायदा होगा। पीएम सेतु योजना के माध्यम से इन आईटीआईज को अपग्रेड किया जाएगा, आधुनिक मशीनें आएगी, इंडस्ट्री के ट्रेनिंग एक्सपर्ट यहां आएंगे। एक तरह से पीएम सेतु योजना दुनिया की स्किल डिमांड से भी भारत के युवाओं को जोड़ेगी।
युनैटेड किंगडम इति देशस्य प्रधानमन्त्री कीर स्टॉर्मर इत्येषः अस्य मासस्य 8 दिनाङ्कादारभ्य 2-दिवसीयायां भारतयात्रायाम् आगमिष्यति। एषा प्रधानमन्त्रिणः स्टॉर्मर वर्यस्य भारतस्य अन्तिमम् आधिकारिकं भ्रमणं भविष्यति। विदेशमन्त्रालयेन उक्तं यत् 9 अक्टोबर इति दिनाङ्के मुम्बईनगरे प्रधानमन्त्री नरेन्द्रमोदी तस्य यूके समकक्ष्येण सह विजन 2035 इति कार्यसूच्यानुरूपं भारत यूके व्यापक सामरिक सहभागित्वान्तर्गतस्य विविध क्षेत्रेषु संभाव्य प्रगतिं समीक्षितुं शक्नोति। एषा व्यापार निवेश प्रौद्योगिक नवाचार रक्षा सुरक्षा जलवायु ऊर्जा स्वास्थ्य शिक्षा जनसम्पर्कादिषु प्रमुखबिन्दुषु केन्द्रीकृता कालबद्धा च 10-वर्षीया कार्ययोजना अस्ति। भारतीय वायुसेनायाः ग्रुप कैप्टन इति पदधारी, इसरो इति पक्षतश्च अन्ताराष्ट्रिय अन्तरिक्ष केन्द्रस्य भ्रमणकर्ता प्रथमः भारतीयः शुभांशु शुक्लः ह्यः नवदेहल्यां विद्यालयीय शिक्षा साक्षरता विभागस्य सचिवेन संजय कुमारेण सह मिलितवान्। सामाजिक प्रसार माध्यमे शिक्षा मन्त्रालयः अवदत् यत् सभैषा विकसित भारत विल्डेथोन 2025 इति विषये केन्द्रिता आसीत्, यत्र प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्ट्यानुरूपं छात्राणां मध्ये वैज्ञानिक स्वभावस्य, सृजनात्मकतायाः, नवान्वेषणस्य च पोषणार्थम् आसीत्, येन ते विकसित भारतं प्रति भारतस्य यात्रायां योगदानं दातुं सशक्ताः भवन्त्विति भावः निहितः आसीत्। श्रीशुक्लः अपि विकसित भारत बिल्डेथोन 2025 इत्यस्य ब्रैंड एम्बेसडर इति रूपेण नियुक्तः अस्ति। केन्द्रीय गृहमन्त्री तथा सहकार मन्त्री अमित शाहः ह्यः तालेगांव नगरस्य डॉ श्यामा प्रसाद मुखर्जी इंडोर क्रिकेट क्रीडांगणे आयोजिते कार्यक्रमे गोवा सर्वकारस्य प्रमुख कल्याण कार्यक्रमस्य माजे घर योजना इत्यस्य उद्घाटनम् अकरोत्। सर्वकारीय सामुदायिक भूमौ निर्मितानां गृहाणां नियमितीकरणं, दीर्घकालीन निवासिनां कृते स्वामित्व अधिकारान् च प्रदातुम् इयं योजना अस्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः उद्घोषयत् यत् गाजा युद्धविरामस्य विषये वार्तायाः अनन्तरं इज़्रेलदेशः प्रारम्भिक प्रत्यागमन पंक्तिं स्वीकृतवान् इति। भारतीय विशिष्ट अभिज्ञान प्राधिकरणेन 7-15 वर्षपर्यन्तानां बालानां कृते आधार बायोमेट्रिक इति अद्यतनीकरणाय शुल्कम् अदेयं भविष्यति। आईसीसी महिला एकदिवसीयायां विश्व क्रिकेट कप इति क्रीडायाम् अद्य कोलम्बो नगरस्य आर प्रेमादास क्रीडांगणे भारतदेशः स्पर्धायाः द्वितीय क्रीडायां पाकिस्तानेन सह क्रीडिष्यति। बैडमिंटन क्रीडायाम् अद्य आबुधाबी नगरस्य खलीफा बिन जायद क्रीडांगणे ऑल एंड मास्टर्स 2025 इत्यस्य अखिल भारतीय महिला एकल अंतिम स्पर्धायां उदयोन्मुख भारतीय शटलर क्रीडिके तस्लीम मीर, श्रीयांसी बालिशेट्टी च परस्परं क्रीडतः इति वार्ताः।